గణపతిగుం హవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణాం బ్రహ్మణస్పత ఆన శృణ్వన్ నోతిభిః సేదసాదనం ప్రణో దేవీ సరస్వతీ వాజేభిర్వాజినీవతీ దీనామవిత్రియవతు గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం ఓం నమో భగవతే రుద్రాయ ఓం నమస్తే రుద్రమన్యవ ఉదోత ఇషవే నమః నమస్తే అస్తు ధన్వనే బాహుభ్యాముదతే నమః యాతకిషు శివతమా శివం బభూవతే ధనుః శివాశరవ్యాయాతపతయానో రుద్రమృడయా యాతే రుద్ర శివా తనూరఘోరా పాపకాశినీ తయానస్తను వాశంతమయా గిరిశంతాభిజాకషి యామిషుం గిరిశం దహత్తే బిభర్షత్తవే శివాంగిరిత్రతాం కురుమాభిగుంసి పురుషం జగత్ శివే నవచసా త్వా గిరిశాచ్చావదామసి యథానః సర్వమిజ్జగత యక్ష్మగుం సుమనా అసత్ అద్య వోచదది భక్తా ప్రథమో దేవ్యోభిషక్ అహేగచ్చ సర్వాన్ జంభయన్ సర్వాస్త యాతు ధాన్యః అసౌ యత్తామ్రో అరుణ ఉత బభ్రుస్తు మంగళః ఏ చేమాగుం రుద్రా అభితో దిక్షుశ్రితా సహస్రశో వైశాగుం హేడయేమహే అసవ్యోపసర్పతి నీలగ్రీవో విలోహితః ఉతైనం గోపా అదృశన్నదృశన్నదహార్యః ఉతైనం విశ్వా భూతాని సదృష్టో మృడయాతినః నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీదుషే అధోయే అస్య సత్వానోహం దేభ్యో గరం నమః ప్రముంజ ధన్వనత్వముభయోరాజ్ఞయోర్జ్యాం యాచ్చ దేహస్త ఇషవః పరాదా భగవో వప అవతత్యదను స్వగుం సహస్రాక్షశతేషుధే నిషేధ్య శల్యాణముఖా శివో న సుమనాభవ విద్యం దను కపర్దినో విశల్యో బాణవాగుం ఉదా అనేశన్నత్యేషవ ఆభురస్య నిశం గధిః యాతే హేతిర్మీ దుష్ట మహత్తే బభూవతే ధనుః తయాత్మాన్ విశ్వదత్వమయక్ష్మయా పరిభుజా నమస్తే అత్వాయుధాయానాతతాయ దృష్టవే ఉభాభ్యాముదతే నమో బాహుభ్యాం తవ ధన్వనే పరితే ధన్వనో ఘేతిరస్మాన్ వృణక్తు విశ్వదః అధో యజిషుదిత్త వారే అస్మన్నిధేహితం నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ త్రయంబకాయ త్రిపురాంధకాయ ಕಾತ್ರಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ. ನಮೋ ಹಿರಣ್ಯಭಾಗವೇ ಸೇನಾನ್ಯೇ ದಿಶಾಂ ಚ ಪತಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯ ಪಶೂನಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಸತ್ಪಿಂಜರಾಯ ತ್ವಿಷೀಮದೇ ಪಧೀನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಬಬ್ಲುಷಾಯ ವಿರ್ಯಾಧಿನೇನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಹರಿಕೇಶಾಯೋಪವೀತಿನೇ ಪುಷ್ಟಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಭವತ್ಯ ಹೇತ್ಯೈ ಜಗದಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ರುದ್ರಾಯ ತಥಾಭಿನೇ ಕ್ಷೇತ್ರಾಣಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಸೂತಾಯ ಹಂತ್ಯಾಯ ವನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ರೋಹಿತಾಯ ತಪತಯೇ ವೃಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಮಂದಿನೇ ವಾಣಿಜಾಯ ಕಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಭುವಂತಯೇ ವಾರಿವತ್ಕೃತಾಯೌಷಧೀನಾಂ ಪತಯೇ ನಮೋ ನಮ. ಉಚ್ಚೈರ್ಘೋಷಾಯ ಕ್ರಂದಯತೇ ಪತ್ತೀನಾಂ ಪತಯೇ ನಮೋ ನಮ. ಕೃಷ್ಣ ವೀತಾಯ ಧಾವತೇ ಸತ್ವನಾಂ ಪತಯೇ ನಮಃ. ನಮಃ ಸಹಮಾನಾಯ ನಿವ್ಯಾಧಿನ ಆವ್ಯಾಧಿನೀನಾಂ ಪತಯೇ ನಮೋ ನಮ. ಕಕುಭಾಯ ನಿಷಂಗಿಣೇ ಸೇನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ನಿಷಂಗಿಣ ಇಷುಧಿಮತೆ ತಸ್ಕರಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ವಂಚತೆ ಪರಿವಂಚತೆ ತಾಯೂನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ನಿಜೇರವೇ ಪರಿಚರಾಯಾರಣ್ಯಾನಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಶೃಕಾಭ್ಯೋ ಜಿಗಾಗುಂದದ್ಭ್ಯೋಮಶ್ನತಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಸಿಮದ್ಭ್ಯೋ ನಕ್ತಂ ಚರಭ್ಯ ಪ್ರಗೃಂದಾನಾಂ ಪತಯೇ ನಮೋ ನಮ. ಉಷ್ಣೀಷಿಣೇ ಗಿರಿಚರಾಯ ಕುಲುಂಚಾನಾಂ ಪತಯೇ ನಮೋ ನಮ. ಇಷುಮದ್ಭ್ಯೋ ದನ್ವಾರಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ. ಆದನ್ವಾನೇಭ್ಯ ಪ್ರತಿದಧಾನೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ. ಆಯಚ್ಚಭ್ಯೋ ವಿಸೃಜಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋಸ್ಯಭ್ಯೋ ವಿದ್ಯಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ. ಆಸೀನೇಭ್ಯಶ್ಚ ಯಾನೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ. ಸ್ವಪದ್ಭ್ಯೋ ಜಾಗ್ರಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ. ತಿಷ್ಟಭ್ಯೋ ದಾವಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ. ಸಭಾಭ್ಯಸಭಾಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ಅಶ್ವೇಭ್ಯೋಶ್ವಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮಃ. ನಮಃ ವ್ಯಾಧಿನೀಭ್ಯೋ ವಿವಿಧ್ಯಂತೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ. ಉಗಣಾಭ್ಯಸ್ತ್ರಿಗುಂಹತೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ಘೃತ್ತೇಭ್ಯೋ ಘೃತ್ಸಪದಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ವ್ರಾತೇಭ್ಯೋ ವ್ರಾತಪದಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ಗಣೇಭ್ಯೋ ಗಣಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ವಿರೂಪೇಭ್ಯೋ ವಿಶ್ವರೂಪೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ಮಹದ್ಭ್ಯಃ ಕ್ಷುಲ್ಲಕೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ರತಿಭ್ಯೋ ರತೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ರಥೇಭ್ಯೋ ರಥಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ. ಸೇನಾಭ್ಯಸ್ತೇನಾನಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ. ಶತ್ರುಭ್ಯಸ್ಸಂಗ್ರಹೀತೃಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ. ರಕ್ಷಭ್ಯೋ ರಥಕಾರೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ. ಕುಲಾಲೇಭ್ಯ कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नमः शुकृत्यो दन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनेभ्यश्च वो नमो नमः श्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिविष्टाय च नमो मीरुष्टमाय चेशुमते च नमो रस्वाय च वामराय च नमो बृहते च वर्षेयसे च नमो वृद्धाय च संवृद्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे च जिराय च नमः शीघ्र्याय च शीभ्याय च नमः ऊर्म्याय च वत्स्वन्याय च नमः श्रोतस्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च वगल्भाय च नमो जगन्याय च बुद्ध्याय च नमः सोऽव्याय च प्रतिसद्याय च नमो याम्याय च क्षेम्याय च नमः उद्भव्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय च वभिन्दते च नमो वर्मिणे च वरूथिने च नमो बृल्मिणे च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हरण्याय च नमो दृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेशुधिमते च नमः तीक्ष्णे च वेचायुधिने च नमः स्वायुधाय च सुदन्वने च नमः श्रुत्याय च पक्याय च नमः कार्त्याय च नीप्याय च नमः सोऽज्ञाय च सदस्याय च नमो नाग्याय च वैषन्दाय च नमः गोप्याय च भट्याय च नमो वश्याय च वश्याय च नमो मेद्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वात्तव्याय च वात्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च ऋणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमः ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयत्कराय च नमः शिवाय च शिवतराय च नमः तीर्थ्याय च कोल्याय च नमः पाद्याय च वाद्याय च नमः प्रतरणाय चोत्तरणाय च नमः आताद्याय च लाद्याय च नमः चष्ट्याय च भेन्याय च नमः ಸಿಗತ್ಯಾಯ ಜ ಪ್ರವಾಕ್ಯಾಯ ಜ ನಮಗಿರಿಣ್ಯಾಯ ಜ ಪ್ರಪತ್ಯಾಯ ಜ ನಮಕ್ಕೆ ಗುಂಶಿರಾಯ ಜ ಶಯನಾಯ ಜ ನಮಃ ಕಪರ್ದಿನೇ ಚ ಪುಲಸ್ತಯೇ ಚ ನಮೋ ಗೋಷ್ಠ್ಯಾಯ ಜ ಗೃಹ್ಯಾಯ ಜ ನಮಃ ಸಲ್ಪ್ಯಾಯ ಜಗೇಕ್ಯಾಯ ಜ ನಮಃ ಕಾಟ್ಯಾಯ ಜಗಪರೇಷ್ಠಾಯ ಜ ನಮೋ ಹೃದಯಾಯ ಜ ನಿವೇಷ್ಟ್ಯಾಯ ಜ ನಮಃ ಪಾಗುಂ ಸವ್ಯಾಯ ಜ ರಜಸ್ಯಾಯ ಜ ನಮಃ ಶುಷ್ಕ್ಯಾಯ ಜ ಹರಿತ್ಯಾಯ ಜ ನಮೋ ಲೋಪ್ಯಾಯ ಜೋಲಪ್ಯಾಯ ಜ ನಮಃ ಊರ್ಭ್ಯಾಯ ಜ ಸೂರ್ಭ್ಯಾಯ ಜ ನಮಃ ಪರ್ಣ್ಯಾಯ ಜ ವರ್ಣಶದ್ಯಾಯ ಜ ನಮೋ ಪಗುರಮಾಣಾಯ ಚಾಭಿಗ್ರತೇ ಚ ನಮಃ ಆಖಿದತೇ ಜ ಪ್ರಖಿದತೇ ಚ ನಮೋ ವಕ್ಕಿರಿಕೇಭ್ಯೋ ದೇವಾನಾಗುಂ ಹೃದಯೇಭ್ಯೋ ನಮೋ ವಿಕ್ಷೀಣಕೇಭ್ಯೋ ನಮೋ ವಿಚಿನ್ಮತ್ಕೇಭ್ಯೋ ನಮ ಆನಿರ್ಹತೇಭ್ಯೋ ನಮ ಆಮೀಭತ್ಕೇಭ್ಯಃ ದ್ರಾಪೇ ಅಂಧಸತ್ಪದೇ ದರಿದ್ರನ್ನೀಯ ಲೋಹಿತಾ ಏಷಾಂ ಪುರುಷಾಣಾಂ ಏಷಾಂ ಪಶೂನಾಂ ಮಾಭೇರ್ಮಾ ರೋಮೋ ಯೇಷಾಂ ಕಿಂಚನಾಮಮತ್ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನೋ ಶಿವಾ ವಿಶ್ವಾಹಭೇಷಜೇ ಶಿವಾ ರುದ್ರತ್ಯಭೇಷಜೇ ತಯಾನೋ ಮೃಡ ಜೀವಸೇ ಇಮಾಗುಂ ರುದ್ರಾಯ ತವಸೇ ಕಪರ್ದಿನೇ ಶಯದ್ವೀರಾಯ ಪ್ರಮರಾಮಹೇ ಮತಿಂ ಯಥಾ ನಶ್ಯಮಸದ್ವಿಪದೇ ಚತುಷ್ಪದೇ ವಿಶ್ವಂ ಪುಷ್ಟಂ ಗ್ರಾಮೇ ಅಸ್ಮಿನ್ನನಾದುರಂ ಮೃಡಾನೋ ರುದ್ರೋತನೋ ಮಯಸ್ಕೃತಿ ಕ್ಷಯದ್ವೀರಾಯ ನಮಸಾ ವಿಧೇಮತೇ ಯಚ್ಚಂ ಜಯೋಶ್ಚ ಮನುರಾಯಜೇ ಪಿತಾ ತದಶ್ಯಾಮತವ ರುದ್ರ ಪ್ರಣೀತೋ ಮಾನೋ ಮಹಾಂತ ಮುತ ಮಾನೋ ಅದ್ಭಕಂ ಮಾನ ಉಕ್ಷಂದ ಮುತ ಮಾನ ಉಕ್ಷಿತಂ ಮಾನೋ ವದೇ ಪಿತರಂ ಮೋದ ಮಾತರಂ ಪ್ರಿಯಮಾನ ತನುವೋ ರುದ್ರರೇರಿಷಃ ಮಾನತ್ತೋಕೇತನ ಯೇ ಮಾನ ಆಯುಷಿ ಮಾನೋ ಗೋಷು ಮಾನೋ ಅಶ್ವೇಷುರೀರಿಷಃ ವೀರಾನ್ಮಾನೋ ರುದ್ರಭಾವಿತೋ ವಧೀರ್ ಹವಿಷ್ಮಂತೋ ನಮಸಾ ವಿಧೇಮತೇ ಆರಾತ್ರೇ ಗೋಗ್ನ ಉತ ಪೂರುಷಗ್ನೇ ಶಯದ್ವೀರಾಯ ತುಂ ನಮಸ್ಮೇತೇ ಅತ್ತು ರಕ್ಷಾ ಜನೋ ಅಧಿಜ ದೇವ ಬ್ರೂಯದಾ ಜನಶ್ಚರ್ಮ ಯಚ್ಚ ದ್ವಿಬರ್ಹಾ ಸುಧಿಶ್ರುತಂಗರ್ತದತಂ ಯುವಾನಂ ಮೃಗನ್ನ ಭೀಮಮುಪಹತ್ತುಮುಗ್ರಂ ಮೃಡಾ ಚರಿತ್ರೇ ರುದ್ರಸ್ತವಾನೋ ಅನ್ಯಂದೇ ಅಸ್ಮನ್ನಿವ ಬಂಧುಸೇನಾ ಪರಿಣೋ ರುದ್ರಸ್ಯ ಹೇತಿರ್ವೃಣಕ್ತು ಪರಿತ್ವೇಷಸ್ಯ ದುರ್ಮತಿರಘಾಯೋಃ ಅವಸ್ಥಿರಾ ಮಗವದ್ಯತ್ತನುಶ್ವಮೀಡತ್ತೋಕಾಯತನಯಾಯ ಮೃಡಯಾ ಮೀಡುಷ್ಟಮಶಿವತಮಶಿವೋ ನಸ್ತುಮನಾಭವ ಪರಮೇ ವೃಕ್ಷ ಆಯುಧನ್ನಿಧಾಯ ಕೃತ್ಯಂ ವಸಾ ನಮಾಚಲಪಿ ನಾಗಂ ಬಿಭ್ರತಾಗಹೀ ವಿಗಿರಿದ ವಿಲೋಹಿತ ನಮಸ್ತೇ ಅಸ್ತು ಭಗವಃ ಯಾಸ್ತೆ ಸಹಸ್ರಗುಂ ಹೇತಯೋನ್ಯಮಸ್ಮನ್ನಿವ ಬಂಧುತಾಃ ಸಹಸ್ರಾಣಿ ದಾತ್ರದಾ ಬಾಹುವೋತ್ತವ ಹೇತಯಃ ತಾಸಾಮೀಶಾನೋ ಭಗವ ಪರಾಚೀನಾ ಮುಖಾಕೃತಿ ಸಹಸ್ರಾಣಿ ದಾತ್ರಶೋ ಯೇ ರುದ್ರಾ ಅಧಿಭೂಮ್ಯಾ ಪೇಷಾಗುಂ ಸಹಸ್ರಯೋ ಜನೇ ವದನ್ಮಾನಿ ದನ್ಮಸೇ अस्मिन् महत्यर्णवेन्दरिक्षे भव अधे नीलग्रीवादिगण्डा शर्वा अधः क्षमाचराः नीलग्रीवाशितिगण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु तस्मिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकातः कवर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पथाम् पथिरक्षय ऐलभृदायव्युलः ये तीर्थाणि प्रचरन्ति सृकावन्दो निषङ्गिणः य एतावन्दश्च भूयागुन्दश्च दिशो रुद्रा विदत्तिरे देशागुम् सहस्रयोजने वदन्नानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिव्ये शामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतिचेर्दशोदेचेर्दशोर्वास्तेभ्यो नमस्ते नो मृणयन्तु देयम् विष्णो यच्च नो द्वेतिरम् भोजम् वेददा त्रिम् वगम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धना नृत्योर्मक्षीयमामृतात् यो रुद्रो अग्रव्यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्यो मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् गन्धिरधिरुद्रो मा विशान्तकः नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमस्तु हि यस्विषुत्सु धन्मायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो भिर्देवमसुरम् दुवत्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजोयगुम् शिवाभिमरुषणः ॐ शान्ति शान्ति शान्तिः विष्णो सजोषसेवावर्धन्तु वाङ्गिरः युम्नैर्वाचेऽपि रागतम् वाचश्च मे प्रसवश्च मे प्रयतिश्च मे प्रतितिश्च मे भीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे अपानश्च मे व्यानश्च मे सुश्च मे चित्तम् च महादेतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च महोजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे जैष्ठ्यम् च म आधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वश्मा च मे द्राघुया च मे वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे जगच्छ मे धनं च मे वशश्च मे द्विषश्च मे क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुखं च मे सुपथं च मरुद्धं च मरुद्धिश्च मे क्लृप्तं च मे क्लृप्तिश्च मे मतिश्च मे सुमतिश्च मे शं च मे मयश्च मे प्रियं च मे नुकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संवृक्ष मे ज्ञात्रं च मे सोश्च मे प्रसोश्च मे क्षीरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नावयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सोषा च मे सुदिनं च मे ऊर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सद्भिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च मौद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कूयवाश्च मे नं च मे शुच्च मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे रवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे शिखराश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे रपुश्च मे शावं च मे लोहं च मे अग्निश्च मापश्च मे विरुधश्च म ओषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ता वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च मयेवश्च मयितिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे ओषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे మరుతశ్చ ఇంద్రశ్చ మే విశ్వే చ మే దేవా ఇంద్రశ్చ మే పృథివీ చ మ ఇంద్రశ్చ మేంతరిక్షం చ మ ఇంద్రశ్చ మే ద్యౌశ్చ మ ఇంద్రశ్చ మే దిశశ్చ మ ఇంద్రశ్చ మే మూర్ధా చ మ ఇంద్రశ్చ మే ప్రజాపతిశ్చ మ ఇంద్రశ్చ మే అగుంశుశ్చ మే రశ్మిశ్చ మేధాభ్యశ్చ మేధిపతిశ్చ మ ఉపాగుంశుశ్చ మేంతర్యామశ్చ మ ఐంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మ ఆశ్వినశ్చ మే ప్రతిప్రస్థానశ్చ మే శుక్రశ్చ మే మంత్రే చ మ ఆగ్రయణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుతు గ్రహాశ్చ మే తిగ్రాహ్యాశ్చ మ ఐంద్రాగ్నశ్చ మే వైశ్వదేవశ్చ మే మరుత్వదేయాశ్చ మే మాహేంద్రశ్చ మ ఆదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే పౌష్ణశ్చ మే పాత్రీవతశ్చ మే హార్యోజనశ్చ మే ఇద్మశ్చ మే బర్హిశ్చ మే వేదిశ్చ మే ధిష్ణ్యాశ్చ మే సృజశ్చ మే చమసాశ్చ మే గ్రావాణశ్చ మే స్వరవశ్చ మ ఉపరవాశ్చ మే విషవణే చ మే ద్రోణకలశశ్చ మే వాయవ్యాని చ మే పూతవృక్ష మ ఆధవనీయశ్చ మ ఆగ్నేర్ధ్రం చ మే హవిర్ధానం చ మే గృహాశ్చ మే సదశ్చ మే పురోడాశాశ్చ మే పచతాశ్చ మే వభృతశ్చ మే స్వరాకారశ్చ మే అగ్నిశ్చ మే ఘర్మశ్చ మేర్గశ్చ మే సూర్యశ్చ మే ప్రాణశ్చ మేష్వమేధశ్చ మే పృథివీ చ మే దితిశ్చ మే దితిశ్చ మే ద్యౌశ్చ మే చత్వరే రంగులయో దిశశ్చ మే యజ్ఞేన కల్పం తామృక్ష మే సామ చ మే సోమశ్చ మే యజుశ్చ మే దీక్షా చ మే తపశ్చ మరుతుశ్చ మే వ్రతం చ మే హోరాత్రయోర్వృష్ట్యా బృహద్రథంతరే చ మే యజ్ఞేన కల్పేతాం గర్భాశ్చ మే వత్సాశ్చ మే త్రయవిశ్చ మే త్రయవే చ మే ద్వితీయవాచ్య మే ద్వితీయోహేచ మే పంచావిశ్చ మే పంచావేచ మే త్రివత్సశ్చ మే త్రివత్సాచ మే తుర్యవాచ్య మే తుర్యోహేచ మే పష్టవాచ్య మే పష్టౌహేచ మ ఉక్షాచ మే వశాచ మ ఋషభశ్చ మే వేహశ్చ మే నడ్వాంచ మే ధేనుశ్చ మ ఆయుర్యజ్ఞేన కల్పతాం ప్రాణో యజ్ఞేన కల్పతాం అపానో యజ్ఞేన కల్పతాం వ్యానో యజ్ఞేన కల్పతాం చక్షుర్యజ్ఞేన కల్పతాం శ్రోత్రం యజ్ఞేన కల్పతాం మనో యజ్ఞేన కల్పతాం వాక్ యజ్ఞేన కల్పతాం ఆత్మా యజ్ఞేన కల్పతాం యజ్ఞో యజ్ఞేన కల్పతాం ఏకాశ మే తిస్రశ్చ మే పంచ చ మే సప్త చ మే నవ చ మ ఏకాదశ చ మే త్రయోదశ చ మే పంచదశ చ మే సప్తదశ చ మే నవదశ చ మ ఏకవిగుంశతిశ్చ మే త్రయోవిగుంశతిశ్చ మే పంచవిగుంశతిశ్చ మే సప్తవిగుంశతిశ్చ మే నవవిగుంశతిశ్చ మ ఏకత్రిగుంశచ్చ మే త్రయస్త్రిగుంశచ్చ మే चतस्रश्च मेष्ठौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मेष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मेष्टा चत्वारिगुंशच्च मे वाजश्च प्रथमश्चाभिजश्च क्रतुश्च शुवश्च मूर्धा च व्यस्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च इदा देवहोर्मनुर्यज्ञरे बृहस्पतिरुत्था मदानि शगुंसिषद्विश्वे देवासोक्तवाच पृथिविमातर्मा वाहिगुंसि मधुमरिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुम् शुश्रूषेण्या मनुष्येभ्यस्तम् वा देव अवन्तु शोभायै पितरोऽनुमदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्छयोरावृणीमहे गादयज्ञाय गादयज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शर्णो अस्तु द्विपदे शंशतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् सवोविम् विश्वतो भृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्तेशानः यदन्नेनातिरोहति एतावानस्य महिमा अधोऽध्यायागश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपादोर्ध्व उदय पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वम् व्यक्रामत् शासनानशने अभि तस्माद्विराड जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म इत्म शरद्धविः सप्तास्यासन् परिदयः त्रिसप्त समिद कृताः देवायज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् तञ्यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्ता स्वात्यालिशयश्च ये तस्माद्यज्ञात् सर्वहुतः संवृतम् वृषराज्यम् पशोगस्तागश्चक्रे वायव्यान आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः रुचस्तामानि जग्निरे चन्दागुंसि जग्निरे तस्मात् यदुस्तस्मादजायत तस्मादश्वा अजायन्त एकेजो भयाजतः गावो हजग्निरे तस्मात् तस्मात् जाता अजावयः यत्पुरुषं व्यगदुः कथिधा व्यकल्पयन् मुखं किमस्य कौ बाहु का गुरुपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यकृतः ऊरोदस्य यद्वैश्यः पद्यागुं शूद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रस्याग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शेष्णौद्यौ समवर्तत पद्भ्याम् भूमिर्दिशश्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहनेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा विवदन्यदास्ते दाता पुरस्ताद्यमुदा जहार शक्रप्रभिद्वान् प्रतिशतस्रः त्वमेवम् विद्वानमृत इह भवति नान्यः पन्थायनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सजन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्य सम्बोध पृथिव्यैरसा च विश्वकर्मणः समवर्ततादे तस्य त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाचारमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिस्तरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपते यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे वेष्टते लक्ष्मीश्च पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अवम् मनिषाणा सर्वम् मनिषाणा तच्चय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ प्रातरग्निम् प्रातरिन्द्रगुम् भवामहे प्रातर्मित्रावरुणा प्रातरश्विना ప్రాతర్భగం పూషణం బ్రహ్మణస్పతిం ప్రాతః సోమముత రుద్రగుం హువేమ ప్రాతర్జితం భగముగ్రగుం హువేమ వయం పుత్రమదితేర్యో విధర్తా ఆద్రశ్చిద్యం మన్యమానస్తురశ్చిద్రాజాచిద్యం భగం భక్షేత్యాహ భగ ప్రణేతర్భగ సత్యరాజో భగేమాం ధియముదవదదన్నః భగ ప్రణోజనయ గోభిరశ్వైర్భగ ప్రనృభిర్నృవం తస్యావ ఉతేదానీం భగవంతస్యావోత ప్రపిత్వౌతమజ్జే అహ్నా ఉతోదితా భగవన్ సూర్యస్య వయం దేవానాగుం సుమతౌ శ్యామ భగ ఏవ భగవాగుం అస్తు దేవాస్తేన వయం భగవంతస్యామ తం పాభగ సర్వ ఇజ్జో హవేమి సనో భగ పుర ఏత భవేహ సమధ్వరాయోషసో నమంతర విక్రావేవ శుచయే పదాయ అర్వాచీనం వసువిదం భగన్నో రథమివాశ్వవాజిన ఆవహంతు అశ్వావతీర్గోమతీర్న ఉషాసో వీరవతే సదముచ్చంతు భద్రాః ఘృతం దుహానా విశ్వత ప్రపీనా యూయం పాత స్వస్తిభిః సదా నః యో మాగ్నే భాగినగుం సంతమథా భాగం చికీరుషతే అభాగమగ్నే తం కురు మామగ్నే భాగినం కురు ఓం శాంతి 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 ఓం ఆసత్యేన రజసా వర్తమానో నివేశయన్నమృతం మర్త్యం చ హిరణ్యయేన సవితా రథేనా దేవో యాసి భువన విపశ్యన్ అగ్నిం దూతం వృణీమహే హోతారం విశ్వవేదసం అస్య యజ్ఞస్య సుక్రతుం యేషామీషే పశుపతిః పశూనాం చతుష్పదాముత చద్విపదాం నిష్క్రీతోయం యజ్ఞియం భాగమేతురాయ స్పోషాయ జమానస్య సంతు ఓం అధిదేవతా ప్రత్యధిదేవతా సహితాయ ఆదిత్యాయ నమః ఓం ఆప్యాయ స్వసమేతుతే విశ్వతః సోమ వృష్ణియం భవావాజస్య సంగతే అప్సు మే సోమో అబ్రవీదమంతర్విశ్వాని భేషజా అగ్నిం చ విశ్వశంభువమాపశ్చ విశ్వభేషజీః గౌరీ విమాయ సలిలారిత క్షత్యేకపదే ద్విపదే సా చతుష్పదే అష్టాపదే నవపదే బభూవుషి సహస్రాక్షరా పరమే వ్యోమన్ ఓం అధిదేవతా ప్రత్యధిదేవతా సహితాయ సోమాయ నమః ఓం అగ్నిర్మూర్ధాదివ కకుప్పతి పృథివ్యాయం అవాగుం రేతాగుం సిజిన్వతే శోనా పృథివి భవాన్ వృక్షరా నివేశని యచ్చాన శర్మ సప్రదాః క్షేత్రస్య పతినా వయగుం విదేనేవ జయామసే గామశ్వం పోషయిత్రవాసనో మృడాదీదృశే ఓం అధిదేవతా ప్రత్యధిదేవతా సహితాయ అంగారకాయ నమః ॐ उद्भुज्यस्वाग्ने प्रतिजागृह्येन विष्टा पूर्ते सगुं सृजेथा वयम् च पुनः कृण्वग्स्त्वा पितरम् युवानमन्वातागुंसे त्वयि तन्तुमेतम् इदम् विष्णुर्विचक्रमे त्रेधानि ददे पदम् समूढमस्य पागुम् सुरे विष्णोरराटमसि विष्णो पृष्टमसि विष्णोश्रप्त्रे स्तो विष्णोऽस्योरसि विष्णोर्ध्रुवमसि वैष्णवमसि विष्णवे त्वा ॐ अधिदेवता प्रत्यधिदेवता सहिताय बुधाय नमः ॐ बृहस्पते अतियतर्यो अर्हाद्युमद्विभाति क्रतुमर्जनेषु यद्देदयच्छव सर्त प्रजात तदस्वासु द्रविरम् देहि चित्रम् इन्द्रमरुत्व इह पाहि सोमम् यथा शार्याते अपि वस्सु तस्या तव प्रणीते तव शूरशर्मन्नाविवासन्ति कवयस्सु यज्ञाः ब्रह्मजज्ञानम् प्रथमम् पुरस्ताद्विषेमतः सुरुचो वेन आवः समुद्रिया उपमास्य विष्टा सतश्च योनिमसतश्च विवः ॐ अधिदेवता प्रत्यधिदेवता सहिताय बृहस्पतये नमः ॐ प्रवशुक्राय भानवे भरद्वगुम् हव्यम् मतिम् चाग्नये सुपूतम् यो दैव्यानि मानुषा जनो दुष्यन्तर्विश्वानि विद्मनादिगादे इन्द्राणि मासु नारिषु सुपत्नि महवश्रवम् न यस्यापरम् च न जलसामरते पतिः इन्द्रम् वो विश्वतत्परिहवामहे जनेभ्यः अस्माकमस्तु केवलः ॐ अधिदेवता प्रत्यधिदेवता सहिताय शुक्राय नमः ॐ शनो देवेरभिष्टय आपो भवन्तु पीतये शय्योरविश्रवन्तु नः प्रजापतेन त्वदेतान्यन्यो विश्वा जातानि परिता बभूव यर्कामास्ते जुहुमस्तन्नो अस्तु वयर्गस्यामपतयोरयीणाम् इमम् यमप्रस्तरमायिषीदाङ्गिरोभिः पितृभिः संविधानः आत्वा मन्त्रा कविशस्तावहन्त्वेनाराजन् हरिषामादयस्वा ॐ अधिदेवता प्रत्यधिदेवता सहिताय शनेश्वराय नमः ॐ कयानश्चित्र आभुवदूते सदा मृदत्सखा कयाशतिष्ठया वृता आयङ्गौ कृष्णिरक्रमेदसनम् मातरम् पुनः पितरम् च प्रयन्सुवः यत्ते देवे निररुतिराभवन्धदामग्रेवा स्वविचर्त्यम् इदम् ते तद्विश्याम्यायुषो न मध्या कथा जीव पितुमध्ये प्रमुक्तः ॐ अधिदेवता प्रत्यधिदेवता सहिताय राहवे नमः ॐ केतुमन् कृण्वन्न केतवे पेशो वर्यापेशसे समुषद्भिरजायथा ब्रह्मा देवानां परवे कवीनां ऋषिर्विप्राणां महिषो मृगाणां शेनो रुद्रा नागस्वरितिर्वना नागुं सोम पवित्रमत्येतिरेभन्न सचित्रचित्रम् चितयन्तमस्मे चित्रक्षत्रचित्रदवम् वयोधाम् चन्द्रम् रयिम् पुरुवीरम् बृहन्तम् चन्द्रचन्द्राभिर्घृणते युवस्वा ॐ मरिदेवता प्रच्चरिदेवता सहितेभ्यः केतुभ्यो नमः ॐ आदित्यादिनवग्रहदेवताभ्यो नमो नमः ॐ शान्ति शान्ति शान्तिः ॐ अहम् रुद्रेभिर्वसुभिश्चराण्यहमा आदित्यैरुत विश्वदेवैः अहम् मित्रावरुणो वाभिभर्म्यहमिन्द्राग्नि अहमश्विनो भा अहम् सोमावाहनसम् विभर्म्यहम् वष्टारमुतभूषणम् भगम् अहम् दादा मित्रवीणम् भविष्माते सुप्राये यजामानाय सुन्वते अहम् राश्री सङ्गमानि वसूनाम् चिकितुषीम् प्रथमा यज्ञियानाम् तामा देवाव्यागदु पुरुत्रा भूरिस्थात्राम् भूर्याम् वेषयन् मया सोऽन्नामत्यो विपश्याति य प्राणीति यैं शृणोत्युक्तम् अवन्तभूमान्त उपक्षियन्ति श्रुति श्रोत श्रद्धिवन्ते वदामि अहमेव स्वयमिदम् वादामि दुष्टम् देवेभिरुतमानुषेभिः यम् कामयेतम् तामुग्रम् कृणोमितम् ब्रह्माणम् तमृषिम् तम् सुमेधाम् अहम् रुद्राय धनुराता नोमि ब्रह्मद्विशेषरामेहन्तवाओ अहम् जनाय समदम् कृणोम्यहम् द्यावा पृथिवी आविवेश अहम् सोमे पितरामस्य मूर्धन् मम योनिरप्स्वान्तः सामुद्रे ततो वितिष्ठे पुमरानुविश्वोतामोन्ध्याम् वर्ष्मनोपस्पृशामि अहमेव वाता इव प्रभाम्यारभामाना भुवानानि विश्वा परो दिवापर येना पृथिव्यै कावाद्विमहिना सम्बाभूवा ईशानः सर्वविद्यानामीश्वर सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवो तद्विष्णोर्परमम् पदगुम् सदा पश्यन्ति सूरयः दिवेव चक्षुरातकम् तद्विप्रासो विपन्यवो जागृवागुम् सस्सविन्दते विष्णोर्यः परमम् पदम् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि ತನ್ನ ಸರ್ವ ಪ್ರಚೋದಯಾತ್ ಸ್ವಸ್ತಿ ಪ್ರಜಾಭ್ಯ ಪರಿಪಾಲಯಂತ ನ್ಯಾಯೇನ ಮಾರ್ಗೇನ ಮಹೇ ಮಹೇಶಾಃ ಗೋಬ್ರಾಹ್ಮಣೇಭ್ಯ ಶುಭಮಸ್ತು ನಿತ್ಯಂ ಸಮಸ್ತ ಲೋಕಾಃ ಸುಖಿನೋ ಭವಂತು ಸಮಸ್ತ ಲೋಕಾಃ ಸುಖಿನೋ ಭವಂತು ಸಮಸ್ತ ಲೋಕಾಃ ಸುಖಿನೋ ಭವಂತು ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿ